ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। श्रीशुक उवाच। अंशुमांश्च तपस्तेपे गंगानयन काम्यया कालं महान्तं नाशक्नो ततः कालेन संस्थितः। दिलीपस्तत्सुतस्तद्वद् अशक्तः कालमेवान्। भगीरथस्तस्य पुत्रस्तेपे स सुमहत्तपः। दर्शयामास तं देवी प्रसन्ना वरदास्मिते। इत्युक्तः स्वमभिप्रायं स संसावनतो नृपः। कोऽपि धारयिता वेगं पतन्त्या मे महीतले, अन्यथा भूतलं भित्त्वा नृपयास्ये रसातलम्। किं चाहं न भुवं यास्ये नरा मय्या मृजन्त्यघम्। मृजामि तदघं कुत्र राजंस्तत्र विचिन्त्यताम्। भगीरथ उवाच। साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः। हरन्त्यघं तेऽङ्गसङ्गात् तेष्वास्ते ह्यगभिद्धरिः। धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणां। यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु। इत्युक्त्वा सन्नृपो देवं तपसा तोषयच्छिवम्। कालेनाल्पीयसा राजन् तस्येषः समतुष्यत। तथेति राज्ञाभिहितं सर्वलोकहितः शिवः। दधारावहितो गङ्गां पादपूतजलां हरेः। भगीरथस्य राजर्षिर्निन्ये भुवन पावनी। यत्र स्वपितॄणां देहा भस्मीभूताश्मसेरते। रथेन वायुवेगेन प्रयान्तमनुधावति। देशान् पुनन्ति निर्दग्धा नासिञ्चत् सगरात्मजान्। यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि। सगरात्मजादिवं जग्मुः केवलं देहभस्मभिः। भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः। किं पुनः श्रद्धया देवीं ये सेवन्ते धृतव्रताः। नय्येतत्परमाश्चर्यं स्वर्धुन्या यदि होदितम्। अनन्तचरणां भोजप्रसूताया भवच्छिदः। सन्निवेश्य मनो यस्मिञ्छद्धया मुनयोमलाः। त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम्। श्रुतो भगीरथाज्जज्ञे तस्य नाभोपरोऽभवत्। सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत्। ऋतुपर्णो नलसखो योऽश्वविद्यामयान्नलात्। दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतः। ततः सुदासस्तत्पुत्रो मदयन्ति पतिर्नृप। आहुर्मित्रसहं यं वै कल्माशाङ्घ्रिमुत क्वचित्। वसिष्ठशापात् रक्षो भूदनपत्यः स्वकर्मणा। राजोवाच। किं निमित्तो गुरोः शापः सौदासस्य महात्मनः। एतद्वेदितुमिच्छामः कथ्यतां नरहो यदि। श्रीशुक उवाच। सौदासो मृगयां किञ्चिच्चरन् रक्षो जघानः। मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया। सचिन्तयन्नघं राज्ञः सूदरूपधरो गृहे। गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम्। परिवेक्ष्यमाणं भगवान् विलोक्या भक्ष्यमञ्जसा। राजानमशपत्क्रुद्धो रक्षो ह्येवं भविष्यसि। रक्षाकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम्। सोऽप्यपोञ्जलिनादाय गुरुं सप्तुं समुद्यतः। वारितो मदयन्त्यापो रुषतीः पादयोर्जहौ। दिशः खमवनीं सर्वं पश्यं जीवमयं नृपः। राक्षसं भावमापन्नः पादे कल्माशताङ्गतः। व्यवायकाले ददृशे वनौको दम्पती द्विजौ। क्षुधार्थो जगृहे विप्रं तत्पत्न्याः कृतार्थवत्। न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः। मदयन्त्याः पतिर्वीरनाधर्मं कर्तुमर्हसि। देहि मे पत्यकामाया अकृतार्थं पतिं द्विजम्। देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः। तस्मादस्य वधो वीर सर्वार्थवध उच्यते। एष हि ब्राह्मणो विद्वांस्तपः शीलगुणान्वितः। आरिराधयिषुर्ब्रह्म महापुरुषसङ्गितम्। सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः। सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो। कथमर्हति धर्मज्ञवधं पितुरिवात्मजः। तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः। कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान्। यद्ययं क्रियते भक्षस्तर्हि मां खादपूर्वतः। न जीविष्ये विना येन क्षणं च मृतकं यथा। एवं करुणभाषिण्या विलपन्त्या अनाथवत्। व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः। ब्राह्मणी वीक्ष्य दिदिशुं पुरुषादेन भक्षितम्। शोचन्त्यात्मानमुर्वीषमशपत्कुपिता सति यस्मान्मे भक्षितः पाप कामार्ताया पतिस्त्वया तवापि मृत्युराधानादकृतप्रज्ञदर्शितः एवं मित्रसहं शप्त्वा पतिलोकपरायणा तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः विज्ञाय ब्रह्मणि शापं महिष्या स निवारितः तत ऊर्ध्वं सतत्याज स्त्रीसुखं कर्मणा प्रजाः वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् सा वै सप्तसमागर्भमबिभ्रन्न व्यजायत जग्नेश्मनोदरं तस्या सोऽस्मकस्तेन कथ्यते अस्मकान्मूलको यज्ञे यस्त्रीभिः परिरक्षितः नारीकवच इत्युक्तो निक्षत्रे मूलको भवत् ततो दशरथस्तस्मात् पुत्र ऐरविडस्ततः राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् यो देवैरर्थितो दैत्यानवधीत् युधि दुर्जयः मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः न श्रियो न मही राज्यं न दाराश्चाति वल्लभाः न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्वचित् नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्वहम् देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः न वृणेतमहं कामं भूतभावन भावनः ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितं न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे अथेशमाया रचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु रूढं प्रकृत्यात्मनि विश्वकर्तुर्भावेन हित्वा तमहं प्रपद्ये इति व्यवसितो बुद्ध्या नारायणगृहीतया हित्वान्यभावमज्ञानं ततः स्वं भावमाश्रितः यत्तद्ब्रह्मपरं सूक्ष्ममशून्यं शून्यकल्पितं भगवान् वासुदेवेति यं गृह्णन्ति हि सात्वताः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सूर्यवंशानुवर्णने नवमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।